नमो नमः सर्वेभ्यः अनुग्रह भगिनी कृपया प्रारम्भं करोतु।
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभा निर्विघ्नं गुरुं कुरु मे देव सर्वकार्येषु सर्वदा।
यथा तथातः यथा तथा पर्यन्तं पठितवन्तः। स्म सुन्दरेशः बन्धुगृहं गत्वा आगतवान्। Sundaresh went to his relative's house and he went and came back. He has gone there and come back. तत्र कः कः किं करोति स्म इति सः मातरं वदति। So there, who all were doing what is what he is explaining his who all were doing what he is explaining to his mother.
So the idea here is that Sma is used to talk about happenings. So in the first sentence, iti Sundareshah bandhu graham gatva agatavan. Tatra kaha kaha kim karoti Sma iti saha mataram vadati. Karoti Sma, so karoti is latlakara. We know it is a present tense. Doing, what to do. But Sma here, when you add the word Sma, put Sma after the dharya, it becomes past tense. Okay, any questions here? नयना भगिनी अग्रिमं करोतु। नयना भगिनी अस्ति वा?
आं भगिनि। माता मह ध्यानं करोति स्मः स्म mother is mother was meditating.
Mata maha ityukte
grandfather.
Okay, Mata Maha is the grandfather from maternal side, right?
Haan, Mata.
Father of mother.
We say Pita Maha, Mata Maha. Anugraha Bhagini,
Agriwam. Matulani with
We say uncle's wife, mama's wife. You call mommy.
Matulani bhojanam karoti. Bhojanam. But she's cooking.
Pakam karoti.
Pakam.
Pakam cooking.
Pakam karoti sma. This is
the
like
dhatu is pach dhatu.
Pach, okay. Pakam karoti sma.
She was doing cooking. She was cooking.
Okay.
Dhanyavad Anu. Vijay Mahade Agrimam Karoti. So, Matulaha is uncle. He is doing the puja. श्रूयते I'm unable to hear you. Mahodaya, I don't hear you. I see you have unmuted yourself, but I couldn't hear you for some reason. And now I think you're audible.
मातुलः पूजां करोति स्म मदर्स् ब्रदर् अङ्कल् वास् डूङ्ग् हिस् प्रेयर् पूजा प्रेयर् धन्यवादः
धन्यवादः
रमा निद्रां करोति स्म
अथवा निद्रां द्वयमपि
सुधा पठनं करोति स्म
पठनं करोति स्म पुस्तकं पठति स्म शी इस् रीडिङ्ग् अ बुक् शी वास् रीडिङ्ग् अ बुक्
सुधा पुस्तकं पठति स्म
धन्यवादः अनुग्रह भगिनी अग्रिमं करोतु कृपया
रमेशः योगं करोति स्म योगाभ्यासं करोति स्म
रमेशः व्यायामं पठन्
रमेशः योगाभ्यासं करोति
व्यायाम इज एक्सरसाइज द नेक्स्ट वन इज लीला मार्जनं करोति स्म
सम्मार्जनं करोति
सम्मार्जनं करोति स्म मातामही बालकं
रङ्गराजन्
लालयन्ति स्म लालयन्ति स्म लालयति स्म
added to the present tense of the verb and giving them the sense of past tense the usage of ma any questions in this or can I move to the next one so the next one is twa ik it twa twa now we should be pronouncing that Tva is a pratyaya. Okay. Tva is a pratyaya. So we will try to understand the usage of tva pratyaya. Nayana Bhagini, can you read the first example?
Bhagini. Saha shalam gacchati. पाठं पठति she is going to school.
She goes to the school.
She is studying. She goes to the school and she is doing study.
She studies.
सः शालां गत्वा पाठं पठति. She went to school. She studied.
Both convey the same meaning, right? Then why should I have two different sentences? Any specific reason? Are you able to figure out anything in this?
Past tense it is. मैं जाना नहीं पड़ गई.
So it basically tries to convey having gone there, he does the job.
Okay.
He goes to school, he reads.
Yes.
He after going to the school or being gone to the school, he reads. Tatva patati. Okay.
Then
so there are two kriyas. There are two kriyas. One takes the chavatu pratyaya. Bhagini, can you please mute yourself? So basically there are two kriyas. Okay. Now both the sentences are correct. There is no nothing wrong in both the sentences. He goes to the school, he reads. He having gone to the school, he reads. So that is the idea of adding a pratyaya. Any questions in this? Okay. Then we shall continue. Anugraha Bhagini Agrimam Pratamam Abhyasam Karo.
ते कार्यं कुर्वन्ति श्रान्ताः भवन्ति. ते ते कार्यं कृत्वा श्रान्ता भवन्ति. कृत्वा
कृत्वा
श्रान्ता
श्रान्ता.
ओके. सो ऑन डूइंग द वर्क ही रेस्ट और
नो आफ्टर डूइंग द वर्क.
आफ्टर डूइंग द वर्क. ओके. ते कार्यं कृत्वा श्रान्ताः भवन्ति.
आफ्टर डूइंग द वर्क दे बिकेम टायर्ड.
Okay.
Okay, that is the idea. Dhanyavad. Vijay Mahadeva, everyone. Bhagini, Shranta is tired. Ekanamisham Mahadeva. Shranta is tired. What did I say before? I said something, but I was not thinking and saying.
I think rest.
Shranta is resting.
No, Shranta is tired.
Tired, is it?
अहम् अतीव श्रान्ता.
भवन्ति केन् कम् ओन्लि फोर् अ टायर्ड्.
सोरि,
यू केन् एड् द लास्ट् टु वर्ब् भवन्ति ओन्लि इफ् इट्स् टायर्ड्.
भवन्ति इस् फोर् ते. ते भवन्ति
प्लूरल् फार्म्.
ते प्लूरल्.
ओके. सो इवन् यू केन् से rest if it's rest you cannot say bhavanti. It's resting.
I don't understand.
No, if shranta is resting you cannot say bhavanti.
It's bhavanti only.
They became rested like that.
They became tired. Forget the rest. But I was not saying properly. It is tired.
Okay.
Are you asking if it should be bhavati or bhavanti?
No. I'm saying because if it's bhavanti, it cannot be maybe rested. It will be tired.
Not
okay, that's okay. I understand.
Okay. Maybe if you understand. Yeah. Vijay Mahadeva,
I think I think Vishranta is rested.
No, both means rest only. Vishranta, Vishranti is a different word altogether.
Actually, I remember in that story about that Sudhir and the cats, this word Shranta had come there also.
Under the tree, he was resting. So Vishranta also means resting only.
Yeah.
It is with extra vishesh, prefix in front of it. But actually, Maharaj, Vishranta has got a lot of other meaning as well.
Yeah,
even today, be in mute. If you add katha at the end, Vishranta katha, it becomes the meaning of mute or one who cannot speak. There are other meanings in different contexts. So Shanta, Vishranta both convey the same thing. So again saying like beautiful debuts.
Shishuhu kridangane patati rodanam karoti. The child falls in the playground and then cries. Shishuhu kridangane patitva rodanam karoti.
After falling down.
After falling down, the child cries. After having fallen down.
Rangaraj Mahodaya, everyone. Rangaraj Mahodaya, ki baat. To Vidyalaya Mahodaya, Bhavani Mahodaya, Prarambha Karotu Punaha.
अहं फलं खादितवान् जलं पीतवान् अहं फलं खादित्वा जलं पीतवान् I ate the fruit and then drank water
after having the fruit I drank water
yeah.
नयना भगिनी अग्रिमं करोतु कृपया.
किञ्चित् पानीयं पिबतु अनन्तर गच्छतु. अनन्तरं गच्छतु. हैविंग सम वाटर आफ्टर हैविंग सम वाटर वेन
No, this sentence is have some drink, then go.
Drink some, okay. Have some water.
Now you have to say after having some water, you should convert
it. Okay. Kinchit paniyam pitva anantar pitva
anantaram
pitva anantaram gachatu.
सा पत्रं लिखितवती प्रेषितवती. सो शी राइट्स लेटर्स एंड शी सेंड्स इट. सा पत्रं लिखित्वा प्रेषितवती.
लिखित्वा
प्रेषित.
भवन्तः वार्तां शृण्वन्ति विषयं जानन्ति. भवन्तः वार्तां श्रुत्वा विषयं जानन्ति. हैविंग हर्ड द टॉक he knew about it.
He knew
the subject.
Now here it is bhavanta, which means they
knew about it. Yes.
They know. विद्यालय महोदय पुनः
वयं नाटकं पश्यामः गृहम् आगच्छामः वयं नाटकं दृष्ट्वा गृहम् आगच्छामः आफ्टर् वाचिङ्ग् द प्ले विल् कम् होम्
उत्तमं धन्यवादः नयना भगिनी
ताः बालिकाः विषयं स्मरन्ति
ताः बालिकाः
सम्यक् लिखन् रिमेम्बर्
भगिनी योर् वाय्स् गाट्
ताः सम् नेट्वर्क् प्राब्लम् भगिनि ताः
बालिकाः
विषयं दोस्
अनुग्रह भगिनी कृपया तदेव पुनः करोतु भगिन्याः
ताः बालिकाः विषयं स्मरन्ति सम्यक् लिखन्ति ताः बालिकाः विषयं स्मरत्वा सम्यक् ताः बालिकाः विषयं स्मृत्वा सम्यक् लिखन्ति दोस् गर्ल्स् रिमेम्बर् द थिङ्ग्स् एण्ड् रोट् नैस्लि
आफ्टर् रिमेम्बरिङ्ग् ओके विजय महोदय केन् यू डू द विशेषरूपाणि
25.2 विशेषरूपाणि ददाति मीन्स् टु गिव् दत्त्वा हेविङ्ग् गिवन् गृह्णाति गृहीत्वा गृह्णाति मीन्स् टु होल्ड् गृहीत्वा हेविङ्ग् हेल्ड् प्रक्षालयति टु वाश् प्रक्षाल्य हेविङ्ग् वाश्
आगच्छति टेक्
होल्ड्
आगच्छति इति करोतु
आगच्छति आगत्य हेविङ्ग् कम्
उत्तमं धन्यवादः
अस्ति भूत्वा एक्सिस्ट् हेविङ्ग् हेविङ्ग् एक्सिस्टेड् रोदति रुदित्वा टु क्रै हेविङ्ग् क्रै उत्तिष्ठति उत्थाय स्टाण्ड् अप् स्टाण्ड् अप् हेविङ्ग् स्टुड् अप् स्वीकरोति स्वीकृत्य टु रिसीव् हेविङ्ग् रिसीव्ड्
स्वीकरोति टु टेक्
ओके
धन्यवादः महोदय नयना भगिनी कर्तुं शक्नोति वा प्रयत्नं करोतु नो चेत् अनुग्रहः भवतु अनुग्रहः भगिनी भवती एव करोतु अग्रिमम् पृच्छति
पृच्छति पृष्ट्वा ask having
to having ask, having after asking
after having asked उपविशति उपविश्य उपविशति उपविशति ओके टु सिट् हेविङ्ग् सेट् डौन् आफ्टर् सिटिङ्ग् डौन् आनयति आनीय कमिङ्ग् आफ्टर् हेविङ्ग् और् ब्रिङ्गिङ्ग् एण्ड् हेविङ्ग् हेविङ्ग् ब्राट् आह्वयति आहूय आह्वयति
to call
to call okay having called
गोविन्दः गौतमी
केवलं तत्र सर्वे चित्रं ध्यानेन पश्यन्तु महोदय वाक्यानि सन्ति खलु अधोभागे तदेव एकमेकं द्वयं वाक्यानि
अस्तु भगिनि नारायणः गोविन्दस्य गौतम्या च पुत्रः
नारायण
गौतम्याः च पुत्रः नारायण इस् सन् आफ् गोविन्द एण्ड् गौतमी
केन् यू ऐडेण्टिफै द विभक्ति आफ् गोविन्दस्य गौतम्याः
गोविन्दस्य गौतम्याः षष्ठी विभक्ति बिकास् सम्बन्धेन षष्ठी एण्ड् लता नरसिंहस्य गिरिजाम्बायाः च पुत्री लता इस् डाटर् आफ् नरसिंह एण्ड् गिरिजाम्बा
अत्र दुहिता इति
दुहिता इस् आल्सो डाटर्
धन्यवादः
नारायणः केशवस्य सुमायाः च पिता नारायण इस् Keshava and Suma's father. Lata Keshavasya Sumayaha cha Mata. Lata is Keshava's and Suma's mother.
Keshavaha Govindasya Gautamya cha Pautraha. Keshava is the grandson of Govinda and Gautamya.
Pautraha, Uttama. Dhanyavadaha. Vidyadhar Mahodaya. Oh, Agrimam api patatum. Suma. Shamyam.
Suma, Govindasya, Gautamya cha Pautri. Suma is the granddaughter of Govinda and Gautamya.
Gautami.
Gautami.
Gautami is the Prathama Vibhakti. Gautamyaha is the Shashti Vibhakti.
Shashti Vibhakti. Shashti Vibhakti.
Dhanyavadaha.
Dhanyavadaha.
Dhanyavadaha Mahodaya.
Keshavaha Narasimhasya Girijambayaha cha Dauhitraha. केशव केशव is the grandson of Narasimha and Girijamba.
Dauhitra. Agrimam api karotu. Suma.
Suma. Narasimhasya Girijambaya cha Dauhitri. Suma is granddaughter of Narasimha and Girijamba.
गोविन्दः केशवस्य सुमायाः च पितामहः. गोविन्द इस् केशव एण्ड् सुमा ग्राण्ड् फादर् पेटर्नल् गौतमी केशवस्य सुमायाः च पितामही. गौतमी इस् केशव एण्ड् सुमा पटर्नल् ग्राण्ड् मदर् पितामही.
धन्यवादः.
नरसिंहः केशवस्य सुमायाः च मातामहः. नरसिंह इस् दि मेटर्नल् ग्राण्ड् फादर् of Keshava and Suma. Girijamba Keshavasya Sumayaha cha Matamahi. Girijamba is the maternal grandmother of Keshava and Suma.
Uttam. Dhanyavada.
Dhanyavada.
Vidyadhan Mudyadhimam.
नारायणः नरसिंहस्य गिरिजाम्बायाः च जमाता.
जामाता
पुत्र्याः पतिः. नारायण इस् द सन् इन् लॉ आफ् नरसिंह एण्ड् गिरिजाम्बा इस् हस्बेण्ड् आफ् डाटर्. लता गोविन्दस्य गौतम्याः च स्नुषा पुत्रस्य पत्नी. लता इस् डाटर् इन् लॉ आफ् गोविन्द एण्ड् गौतमी वैफ् आफ् द सन् स्नुषा.
ऐ हेव् वन् क्वश्चन् हियर्. जामाता is son-in-law, but it is in Strilinga, right? Strilinga.
It doesn't matter. Actually, my Guru usually says, only for Yogi Pratyaksha, only for those people who have the Yogi Pratyaksha, they know the linga of the word. So, it is out of question for us now. But however, yeah, I will try to explain it probably a bit later.
Okay.
महोदयेन किं पठितं? स्नुषा इति खलु. विद्याधर महोदय समापयतु कृपया.
हा भगिनि.
अग्रिमवाक्यं द्वयम् आसाम् अन्तिमद्वयं वाक्यमस्ति खलु.
आं भगिनि. गोविन्दः लतायाः श्वशुरः. गोविन्द इस् द फादर् इन् लॉ आफ् लता. गौतमी लतायाः श्वश्रूः. गौतमी इस् मदर् इन् लॉ आफ् लता. नरसिंहः नारायणस्य श्वशुरः. नरसिंह इस् फादर् इन् लॉ आफ् नारायण. गिरिजाम्बा नारायणस्य श्वश्रूः. गिरिजाम्बा इस् मदर् इन् लॉ आफ् नारायण.
धन्यवादः. अग्रिममिशमस्ति एतानि वाक्यानि पठतु इति समानविषयमेव तत्रापि पुत्रः अथवा पिता पौत्रः पितामहः गृहपाठरूपेण कुर्वन्ति तर्हि अवश्यं कुर्वन्ति अत्र मातुलः इत्युक्ते मातुः भ्राता मातुलानि इत्युक्ते मातुलस्य पत्नी मातुलः इत्युक्ते अङ्कल् अस्तु भगिनेयः भगिन्याः पुत्रः भगिनी भगिन्याः पुत्री ननान्दा पत्युः भगिनी पितृभ्यः पितुः भ्राता पितृभगिनी पितुः भगिनी श्यालः पत्न्याः भ्राता देवरः पत्युः भ्राता आवृत्तः भगिन्याः पत्नी यु केन् आल् रैट् वन् वन् सेण्टेन्स् लैक् यूस् युवर् ओन् रिलेशन्शिप् लैक् वट् एवर् यु हव् गाट् इन् युर् फेमिलि अण्ड् नेक्स्ट् सेण्टेन्स् सो देर् आर् टु होम्वर्क् वन् विल् बि 26.2 अण्ड् अनदर् विल् बि 26.3 रुचिवाक्यः रुचिवाचकाः शब्दाः अनन्तरम् अनुग्रह भगिनी पठति वा
आं भगिनि लवणं लवणस्य रुचिः लवणः लवणम् इस् साल्ट् टेस्ट् आफ् साल्ट् इस् साल्टि
लवणस्य रुचिः लवणः विजय महोदय
जम्बीरं जम्बीरस्य रुचिः आम्लं लेमन्स् टेस्ट् इस् साल्ट्
धन्यवादः
चाकलेहस्य रुचिः मधुरः चाकलेहः मीन्स् चाकलेट् चाकलेहस्य रुचिः मधुरः चाकलेट् टेस्ट् इस् स्वीट्
धन्यवादः
मरीचिका मरीचिकायाः रुचिः कटुः मरीचिका इस् चिल्लि कटुः मीन्स् स्पैसि चिल्लि स्पेसि स्पैसि
कारवेल्लस्य रुचिः तिक्तः कारवेल्लं बिटर् गाड् बिटर् गाड्स् टेस्ट् बिटर् ओके तिक्तः
धन्यवादः
आम्लकस्य रुचिः कषायः आम्लकम् इस् गूस्बेरि कषायः इस् अस्ट्रिञ्जेण्ट् धन्यवादः
महोदय ऐ थिङ्क् इट् इस् आमलकम्
आम्ला नो आम्ला इस् गूस्बेरि
बट् आम्ला इस् द कलोकियल् वे लक्ष्यते आम्लकम् इस् द प्रापर्
आम्लकम्
आम्लकम् ट्वेण्टि सेवेन् पायिण्ट् वन् तादृशमेव गृहपाठरूपेण कुर्वन्तु एकं सम्भाषणमस्ति अत्र Chandra Bhagini Vidyadhar Mahodaya Putraha Mata Putraha Mata Pakritva Karoti Svikritva Karoti
Aham Bhagini Aham Mata Svikaromi
Vidyadhar Mahodaya Putraha Mata
अम्बा किम् अद्य क्वथितं बहु कटु कटु अस्ति
तर्हि क्वथितं मा स्वीकरोतु तक्रं परिवेशयामि
मीनिङ्ग्
भगिनी
अम्बा
मीन्स् Okay, I think
that will explain. Chandra Bhagini, can you please be mute? I think we are hearing echo from
there is
you.
Echo, yeah.
Just mute and... Yeah, now I can hear. Vadatu Mahodaya, Bhavan kimapi vaktumichyati va?
Mother, why today's cuisine or whatever you have prepared is
Kvatidam very spicy?
Oh, Patitam is okay. Okay. Yeah. Sambar is very spicy.
Then Mata says, Patitam mas vikarotu. Takram pariveshe.
Tarhi, Patitam mas vikarotu. Then don't take the sambar. Takram pariveshayami. Takram is butter, isn't it?
Butter.
But I will serve butter.
Takram bahu amlam asti amba. His buttermilk is very sour, mother.
Bhavan tu kevalam maduram ichchati. Etat modakam khadatu. Bahu maduram asti. You always like only sweet things. Take this modakam. It is very sweet.
Satyam amba. Etat madhuram asti. Really mother, this is sweet. This is very sweet. This is sweet.
Karavelasya vyanjanam asti. Kinchit pariveshayami va. There is some bitter gourd curry, bitter gourd preparation. Shall I serve some of it?
Maastu amba.
Vyanjanam is curry. Samyaki.
Maastu amba. Karavellam tiktam bhavati. Aham tiktam na ichhami. Kinchit lavanam pariveshayatu. No mother, bitter gourd is bitter. I don't like bitter. Serve little salt.
Svikarotu. Amalakasya avaleham kinchit pariveshayami va. Okay, take it. Shall I serve some pickle of amla pickle? Correct, isn't it, Bhagini? Avaleham is pickle, isn't it? Okay.
Astu. Pariveshayatu. Amba, amalakasya ruchihi kashayaha asti. Yes, sir, mother, taste of gooseberry or amla is kashaya. Kashaya, I don't know what is the word for kashaya in English.
Kashaya is astringent.
Okay.
Tarhi Chambirasya Avalehaṁ Svikarotu. Then take this lemon pickle.
Satu amla asti amba. That also is what do you say amlam for sour. That also is sour, mother.
Bhavan tu maduram ekam eva icchati. Parantu sharirasya vardhanartham sarva vidaha ruchayah api avashyakah eva. You always like only sweets, but all tastes are required for the growth of the body.
Samyak Patitavati, Bhavan api samyak Patitavan, Dhanyavadaha. 27.3 Kvatitam katham asti, so you just pick the taste from the sambhashanam and you can do it as a grihapatha. I think that's doable. So, agrimam api ekam sambhashanam asti. Aduna gharamam asti. Anugraha bhagini api chavi vijay mahodaya dvayam.
Shall I be aapanikaha?
Okay.
Aapanikaha. Bhavati kim ichchati?
Ramma, aham panchalikam ichhami. Okay, I want toys. I would like to have toys.
Ki drisha panchalikam ichchati? What type of doll do you want?
Pashyatu idyasha panchalika idrisha pashyatu idrisha panchalikam ichhami. Asti va? See, I need this kind of doll. Is it there?
Aapanikaha asti parantu tadrisha panchalikayah mulyam vimshat rupyakani. Yes, we have that kind of doll, but its cost is 20 rupees.
Rama, darshayatu bhoho. Please show sir. Kim bhoho mama sakhi api ह्यः ईदृशं पाञ्चालिकाम् एव क्रीतवती. तस्याः मूल्यं तु दशरूप्यकाणि एव. वाट् सर्, मै फ्रेण्ड् आल्सो दिस् बाट् दिस् कैण्ड् आफ़् डाल् फ्रम् यू यस्टर्डे. हर् प्रैस् वास् ओन्ली 10 रुपीस्.
आपणिकः प्रायः सा पाञ्चालिका ईदृश पाञ्चालिका न स्यात्. She would not have purchased this kind of doll because it is not usually available or something. Prayah.
Prayah or probably.
Probably.
Rama. ईदृश पाञ्चालिका एव भोः अहं सम्यक् जानामि. इट् वास् ओन्लि दिस् टैप् आफ् डाल् सर्. ऐ नो इट् वेरि वेल्.
तर्हि पञ्चदशरूप्यकाणि ददातु, नयतु. यु पे मी 15 रुपीस् अण्ड् टेक्.
रमा, न पञ्चदशरूप्यकाणि अधिकानि. अहं तु दशरूप्यकाणि ददामि. नो, पञ्चकाणि रूपीस् इस् टू मच्. ऐ विल् गिव् ओन्लि 10 रुपीस्.
आपणिकः, भवतु, पाञ्चालिकां स्वीकरोतु. यु टेक् दिस् टेक् द डाल् फार् 10 रुपीस्.
धन्यवादः.
धन्यवादः.
विशेषसूचना इति अस्ति. ईदृशः स्यूतः, ईदृशी घटी, ईदृशं पुस्तकं. लिङ्गवचनं किम् इति दृष्ट्वा, लिङ्गं दृष्ट्वा, पुल्लिङ्गः इत्युक्ते ईदृशः, स्त्रीलिङ्गः इत्युक्ते ईदृशी, नपुंसकलिङ्गम् इत्युक्ते ईदृशम् इति ज्ञातव्यं, ज्ञेयम्. अग्रिमं किम् अस्ति? पुनः
सम्भाषणं. भगिनी, एकं सन्देहम् अस्ति. घटी ईकारान्त स्त्रीलिङ्ग अस्ति वा? ईकारान्त स्त्रीलिङ्गम्, आकारान्त स्त्रीलिङ्गम् इट् विल् बिकम् ईदृशा आर् ईदृशी फार् देट् आल्सो. ओके, सो इट् इस् आल्सो लिङ्ग अण्ड् अन्त बोत् मेटर् रैट्?
Both matter, but akaranta I will check and tell you, however, because it is not much used these days.
Okay.
I'll check.
Bhagini, in this previous conversation, Panchalika is strilinga. There it is only said idrisha Panchalika eva boho.
Then it so, is not, there will not be any kind of ikarta. Idrisha Panchalika. Samichanam, good observation. Samyak. Avagatam va mahodaya? Vigyadar mahodaya?
So idrishi ghati, it is only for the ikaranta this will change?
Ikaranta. Yeah, only for ikaranta it is idrishi. If it is, for example, Panchalika, as Vini rightly pointed out, it is Idrisha Panchalika.
Okay.
Can you do the next one?
One more doubt. The usage of Syat. Prayaha Sa An.
It is also in Asdhatu. Okay. Which is to be. So he is trying to say it might not be like so. Would not be like that or this. How do I explain Syat? What is Asdhatu? It is, the meaning is to be. The meaning of us is to be. So, we have to relate it that way.
So, is it Syat is in Bhutakala or?
Perhaps, kind of.
Okay.
For example, if I say Yadi Tarhi, we didn't see, right? We have not seen. Okay, however, I use that. Yadi Sa Syat, has she been here? In that sense, it's probably, perhaps.
Okay.
Tata na syat, it may not be true.
Okay.
Okay, prayaha is probably, so with probably you can use prayaha tata na syat. Probably it may not be like so.
Something similar usage like chet only, right? Possibility.
It is not possibility as well. Perhaps in that meaning it comes.
Okay.
अग्रिमं पठति वा?
आं भगिनि. पूर्वतनसम्भाषणे पाञ्चालिकाशब्दस्य स्थाने लेखनी इति शब्दं योजयित्वा सम्भाषणं
गृहपाठरूपेण करोतु. 29.1 करोतु.
विरुद्धार्थकाः शब्दाः उन्नतः वामन, सारि उन्नत वामन. उन्नत मीन्स् टाल्, वामन मीन्स् शार्ट्. पुरातन नूतन, पुरातन मीन्स् ओल्ड्, नूतन मीन्स् न्यू. बृहत् लघु, बृहत् मीन्स् बिग्, लघु मीन्स् स्माल्. दीर्घ ह्रस्व, दीर्घ मीन्स् लाङ्ग्, ह्रस्व मीन्स् शार्ट्. स्थूल कृश, Stula means big in size. Krishna means
stout.
Lean. Yeah, stout and lean. Adhikam, kinchit. Adhikam means more. Kinchit means little.
So, virudhartakaha means contradiction.
Opposite.
Meaning of contradiction. Yeah, you can call it opposite as well. The actual term is contradiction. You can decide that. Can you also do the first one, Mohan? Narikela, where is the typo? Nalikera, vinswa.
नारिकेलवृक्षः उन्नतः अस्ति. जम्बीरवृक्षः वामनः अस्ति. मीनिङ्ग् कोकोनट् ट्री इस् वेरि लाङ्ग् टाल् and what is that lemon plant is actually
small,
short,
not that small. Large.
Yeah,
short. Nugraha bhagni agrimam karoti.
Ha, a dandah dirghah asti. Ba dandah hrasvah asti.
Hrasvah, not hrasvah.
Hara. ह्रस्वः अस्ति. ह्रस्वः
युतकं पुरातन अस्ति. पुस्तकं नूतन. पुरातनम् पुरातनम् अस्ति. पुस्तकं नूतनम् अस्ति. दि शर्ट् इस् ओल्ड् बट् द बुक् इस् न्यू.
गोविन्दः स्थूलः अस्ति. स्थूलः बालकः. समीरः कृशः बालकः.
उत्तमं. धन्यवादः.
विधानसौधं बृहत् भवनं. सन्दीपस्य गृहं लघु गृहम्. भगिनी, हियर् फार् बृहत् अण्ड् लघु द विशेषण विल् नाट् चेञ्ज् अ फार्म्.
सोरि,
फार् एक्साम्पल् युतकं puratanam and nutanam will come, right? Yutakam and pustakam or whatever we call. So for brihat and lagu when we use, so because of vidhana saudham or vidhana saudham, it will not change the form. Visheshana will not change the form. Brihat and lagu.
No, it will not. Because Brihat Laghu, you can try to find the dhatu of those. As in, not dhatu, but the form of those. Okay. It will not change here.
Okay.
Anugraha Bhagini, agrivam.
Dronyam. Adhi. अधिकं जलं द्रोण्या द्रोण्यस्य द्रोण्येन अधिकं जलम् अस्ति.
वै द्रोण्येन? ऐ वाट् द्रोण् ओ द्रोणि.
ओ ओके, इट्स् आलरेडि इन्
दोलरेडि
द्रोण्याम् अधिकं जलम् अस्ति. चषके किञ्चित् जलम् अस्ति.
न्यूनं जलम् अथवा किञ्चित् द्वयमपि समीचीनम्. धन्यवादः. कोऽपि प्रश्नः अस्ति तत्र? नो चेत् वयम् अग्रे
करेम. सिन्स् देर् इस् अ याम् द्रोण्यां विल् दिस् बि अधिकम् और् अधिक जलम् अस्ति?
अधिकं जलम्.
Bhagini, I have a doubt. When we say adhikam, is it depending on dronyam or is it depending on jalam?
Jalam.
Okay.
That's why we say adhikam.
Okay.
Vishesha suchana. स्थूल बालकः स्थूलः, बालिका स्थूला, पुस्तकं स्थूलं, नूतनग्रन्थः नूतनः, लेखनी नूतना, युतकं नूतनं. तत्र लिङ्गस्य विषयं ज्ञेयं. लिङ्गविषयान् तत्र ज्ञेयम् अस्तु. अग्रिममस्ति अपेक्षया. अपेक्षया इत्युक्ते कन्सिडरिङ्ग् आर् वित् दट् व्यू आर् सम्टैम्स् इट् इस् देन्. विजयस्य अपेक्षया विनयः उन्नतः. कन्सिडरिङ्ग् बोत् द टु वन् इस् आल्. सो वि आर् यूसिङ्ग् अपेक्षया. अपेक्षया
केन् इट् आल्सो बि इन् कम्पेरिसन् कम्पेर् टु
या कन्सिडरिङ्ग् टु इस् कम्पेरिसन्. सो यू कीप् एडिङ्ग् अपेक्षया अपेक्षया टु आल्. अस्तु, चन्द्रभगिनी भवती एव प्रथमं करोतु.
आवरणे विद्यमानस्य पदस्य सहायेन वाक्यानि लिखतु. विजयस्य अपेक्षया विनयः उन्नतः. कम्पेर् टु विक्ट्रि ह्युमिलिटि इस् उन्नतः. बिग् और् इम्पोर्टेण्ट्?
इट् इस् टाल्. इट् स्टाण्ड्स् टाल्. इट् स्टाण्ड्स् टाल्.
Oh, stand tall.
So here you have to understand Vijayasya. It has been given in Shashti Vibhakti. Because there is a sambandha between Vijaya and Vinaya.
Okay.
Agrimam karoti. Pratamam udaharanam. Agrimam karoti. Pratamam udaharanam.
Madhusudanasya apekshaya samirah चतुरः. सो कम्पेर् टु मधुसूदन, समीरः इस् क्लेवर्.
उत्तमम्.
इण्टेलिजेण्ट्.
अस्तु, धन्यवादः. विद्याधर महोदय अग्रिमं करोतु कृपया.
रघुवंशस्य अपेक्षया रामायणं बृहत् काव्यम्. कम्पेर् टु रघुवंश, रामायण इस् ए बिग् वाट् इस् ए काव्यं. सारी, वाट् इस् ए काव्यम् एक्चुलि?
एपिक्.
Epic. Epic is Purana. Okay, actually, okay.
What were you asking?
Kavyam. Actually, Kavyam is a poem.
Kavyam is poem. It's not epic.
Yeah.
Itihasa is epic.
Ramayana is a bigger poem compared to Raghavamsa.
मम गृहस्य अपेक्षया भवतः गृहं विशालं. कम्पेर् टु मै हौस्, योर् हौस् इस् बिग् बिगर्.
अस्तु, विजय महोदय अग्रिमम्.
बेङ्गलूरु नगरस्य अपेक्षया मैसूरु मैसूरु नगरं सुन्दरम्. इन् कम्पेरिसन् टु बेङ्गलूर् मैसूर् इस् मोर् ब्यूटिफुल्.
चन्द्रभगिनी अग्रिमम्.
लेखनस्य अपेक्षया भाषणं सुलभं. कम्पेर् टु रैटिङ्ग् स्पीकिङ्ग् इस् ईसि.
विद्याधर महोदय समापयतु.
उमायाः अपेक्षया अपर्णा कृशा. कम्पेर् टु उमा अपर्णा इस् लीन्.
यत्र तत्र एतेषां पदानां साहाय्येन अन्यानि वाक्यानि लिखतु. With this words, write the, complete the sentences. उदाहरणं शर्करा पिपीलिकाः. यत्र शर्करा तत्र पिपीलिकाः भवन्ति. Where there is sugar, there all the ants will be there. Ants are there.
पिपीलिकाः ants. सम्यक्, धन्यवादः. विजय महोदय अग्रिमम्.
यत्र दीपः तत्र प्रकाशः भवन्ति. Where there is light, where there is a lamp, there is light.
उत्तमम्, धन्यवादः. चन्द्रभगिनी,
is it भवति or भवन्ति?
भवति एव, भवति एव.
यत्र क्रीडा तत्र बालकाः भवन्ति. और यत्र बालकाः तत्र क्रीडा भवति. भवति
यत्र विदूषकः तत्र विनोदः भवति. अस्ति विनोदः अस्ति.
विनोदः एक्चुलि मीन्स् हियर् इट् दे टाकिङ्ग् अबौट् द अम्यूस्मेण्ट्.
ओके,
विदूषकः
विनोदः इस् नाट् अ नेम्. ओके,
ही इस् नाट् विनोद. इट्स् अबौट् वेर् एवर् देयर् इस् जोकर् देयर् विल् बि अम्यूस्मेण्ट्.
यत्र आपणः तत्र ग्राहकः अस्ति. वेर् देर् इस् द स्टोर् देर् द स्टोर् कीपर् इस् देर्
ग्राहकः बयर्
ओके वेर् देर् इस् टु ओके भवति.
30.2 ऐ थिङ्क् किं डु इट् गृहपाठरूपेण सर्वे अवश्यं 30.2 आ कुर्वन्तु. अग्रे सरे वा किं तुमुन् प्रत्ययं किमस्ति? तुमुन् अस्ति, तुमुन् अस्ति त्वातः तुमुन्. अनन्तरं चेत्, नो चेत्, यतः, शरीरस्य बाडि पार्ट् अस्ति. अहं कुर्मः अथवा अग्रिमसप्ताहे वयं समापयामः. किमपि वक्तुमिच्छति वा? यु वाण्ट् टु डू इट् टुडे आर्
भगिनी अग्रिमसप्ताहे? अग्रिमसप्ताहे
अस्तु, अस्तु, समीचीनम्. कोऽपि शान्तिमन्त्रं वक्तुम् इच्छति वा?
शलै
करोति
ॐ सर्वेषां स्वस्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु शान्ति शान्ति शान्तिः
धन्यवादः सर्वेषां सो वी विल बी कम्प्लीटिंग आवर क्लास नेक्स्ट क्लास
ओके
धन्यवादः
धन्यवादः सारी ऐ वाज़् लेट् ऐ कुडन्ट् गेट् कनेक्टेड्
चिन्ता नास्ति